गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे, सर्वेभ्यो नमः। अस्माकं प्रवर्तमानविषयः अस्ति तत्र लक्षणं, लक्षणं कीदृशं भवेत्, अपि लक्षणवाक्यं कीदृशं भवेत् इति वयं पठितवन्तः। अद्य वस्तुतः उपस्थापनं नास्ति, तत् पुनःस्मरणार्थं किञ्चित् अहं वदामि, तदनन्तरं वयं अग्रे सरामः। अस्माकं पुरतः तत्र भाषापाकतः, भाषापाक इति पाकः इति जनार्दन हेग्डे महोदयस्य पुस्तकमस्ति, तस्मात् स्वीकृतः एकः लेखः, तत्र शुक्लादीनां पुंस्त्वं विशेषनिघ्नता चापि इति विषये एकः लेखः अस्ति, तं लेखम् अद्य पठामः। तदनन्तरं तत्र स्वरूपमहोदयस्य करपत्रं तत्र प्रायशः अद्य न पठामः, किन्तु अग्रिमवर्गे तस्य आरम्भः भवति इति मन्ये। अतः तत्र विद्याधरी अपि स्यात्, अपि एषः लेखः अपि अस्माकं पुरतः स्यात्। अस्तु तर्हि तत्र वयं गतवर्गे दृष्टवन्तः, तत्र सर्वे तत्र स्क्रीन् द्रष्टुं शक्नुवन्ति खलु, तत्र घटवत् भूतलम् इति प्रायशः अस्ति। अतः तत्र वयं दृष्टवन्तः तत्र गन्धवती पृथिवी इति लक्षणवाक्यम् आसीत्, नाम तत्र गन्धः पृथिव्याः लक्षणम् इति। किन्तु तत्र गन्धः पृथिव्याः लक्षणम् इति एकं वाक्यम् अस्ति, अपि तत्र गन्धवती पृथिवी लत्वं लत्वं पृथिव्याः लक्षणं, पृथ्वीलक्षणम् इति आसीत्। तत्र अस्मिन् लक्षणवाक्ये तत्र गन्धवत्वम् इति तत्र प्रत्याः सन्ति, तत्र के प्रत्याः तत्र सन्ति इति कोऽपि वदति वा? गन्धवत्वम् इति भावप्रत्ययः अस्ति। अस्तु, अतः तत्र तस्य अवगमनार्थं तत्र पुनः तत्र किञ्चित् पुनस्मरणार्थं तत्र एतद् वाक्यं स्वीकुर्मः, घटवत् भूतलम् इति। तत्र विशेषणं किं, विशेष्यं किं घटवत् भूतलम् इति वाक्ये?
घटवत् विशेषणं भूतलं विशेष्यम्।
हा, इति अस्ति खलु, तत्र भूतलं विशेष्यं घटवत् इति विशेषणम् इति, नाम तत्र भूतले घटः अस्ति इति एतस्य वाक्यस्य अर्थः। अतः तत्र मतुपपि अस्ति, अपि भावप्रत्ययः अपि अस्ति, अतः तत्र एतत् कुर्मः केवलं चित्रार्थे, तत्र उपरि गमनार्थं भावप्रत्ययः साधारणतया तत्र त्वम् अथवा तल् इति भवति, अपि अधोगमनार्थं नाम मतुप्रत्ययः तत् अधोगमनार्थम् इति चिन्तयामः वत्, किमर्थं भावप्रत्यय उपरि गमनम् इति चिन्तयामः, यतोहि घटः अस्ति चेत् घटे घटत्वं तस्य भावः, तस्य धर्मः वर्तते, अतः घटत्वं घटे वर्तते, अतः घटत्वम् आदेयः घटः अधिकरणम्, अतः तत्र उपरि गमनः इति चिन्तयामः। घटत्वं भावप्रत्ययः किं करोति, यः पदार्थः अस्ति तस्मिन् किमपि अस्ति, कोऽपि धर्मः अस्ति तं दर्शयति, अतः घटे विद्यमानः धर्मः घटत्वं, घटत्वम् आदेयः घटः अधिकरणम्। इदानीं तत्र भूतलम् अस्ति, भूतले घटः अस्ति, अतः तत्र घटः भूतले अस्ति इति कृत्वा भूतलम् अधिकरणं, भूतलम् अधिकरणं तत्र घटः भूतले अस्ति इति यस्य यस्मिन् वा अर्थे तत्र मतुप्रत्ययः भवति, तत्र यस्मिन् अथवा यस्य घटः अस्ति अथवा यस्मिन् घटः अस्ति सः घटवत् भवति. अत्र भूतलम् इति नपुंसकलिङ्गे, अतः घटवत् इति भवति. अतः तत्र अधोगमनार्थं नाम घटः भूतले वर्तते, घटात् आरभ्य भूतलं गन्तुम् इच्छामः, अतः तत्र किं कुर्मः, घटवत् इति मतुप्रत्ययेन भूतलम् इति पदस्य विशेषणम् आगच्छति. घटवत् इत्युक्ते किं, घटवत् इत्युक्ते भूतलमेव, यतोहि भूतले एव घटः वर्तते इति अस्माकम् अवगमनम् आसीत् खलु. तत्र कोऽपि वदतु तर्हि तत्र योगेन्द्रमहोदय किञ्चित् वदति वा तत्र अत्र स्वीकृत्य, तत्र घटः इति घटः किमर्थं घटवत् भूतलमिति भवति, घटः भूतले अस्ति इत्युक्ते कथं घटवत् भूतलमिति वाक्यं भवति, योगेन्द्रमहोदय? तत्र वत् नाम किं भवति, वत् इति प्रत्ययस्य अर्थः, मतु प्रत्ययस्य अर्थः कः,
मतु प्रत्ययस्य अर्थः भाव, भावप्रत्ययः अस्ति.
भावप्रत्ययः इत्युक्ते तत्र धर्मः. पुस्तके पुस्तके किम् अस्ति, पुस्तके किम् अस्ति,
पुस्तकत्वं, पुस्तकत्वं,
पुस्तकत्वं. हा, तत्र उपरि गमनार्थम् अपि घटे विद्यमानः धर्मः कः,
घटत्वं,
घटत्वं. भावप्रत्ययः उपरि गमनार्थं नाम घटः अस्ति, घटे विद्यमानः धर्मः घटत्वं. किन्तु तत्र यदि तत्र घटः भूतले अस्ति, तत्र भूतले विद्यमानत्वपि पदार्थः, अत्र घटः अस्ति, घटः भूतले अस्ति इति तद् वक्तुं वयं किं कुर्मः, वत् इति स्थापयामः. वत् इति प्रत्ययः, मतु प्रत्ययः, नाम यस्य धनमस्ति सः धनवान् खलु. तथैव धनमस्ति, यस्य धनमस्ति सः धनवान्, यस्मिन् धनः धनमस्ति सः अपि धनवान्. अत्र भूतले किमस्ति,
घटः अस्ति,
घटः अस्ति, अतः भूतलं किं भवति,
घटवत् भूतलम् इति,
घटवत् भूतलं. यस्य धनमस्ति सः धनवान्, यस्मिन् धनमस्ति सः धनवान्, यस्मिन् घटः अस्ति सः घटवान्. किन्तु अत्र तद् इति अस्ति वक्तुं शक्नुमः, सः घटवत् इति भवति. अस्तु, इदानीं तत्र एतत् कुर्मः. धन्यवादः महोदय. इदानीं तत्र एतत् कुर्मः. तत्र गतवर्गे वयम् उक्तवन्तः तत्र एतद् भागं वयं गतवर्गे कृतवन्तः नाम, किन्तु एतत् अन्य कोऽपि किञ्चित् वदतु तस्मिन् विषये. तत्र इदानीम् एतद् भागं स्वीकुर्मः. तत्र घटः भूतले अस्ति, भूतलं घटवत् अस्ति, घटवत् इति इति पदार्थः घटवत्, तस्य भावः कः, घटवत् इति इति पदार्थस्य भावः कः, शोभा भगिनी?
घटवत् इति भावः,
घटवत् इति पदार्थः, घटवत् इति पदार्थः, तस्य भावः, भावप्रत्ययेन किं पदम् आगच्छति,
भावप्रत्ययेन
तत्र घटः अस्ति चेत् घटत्वं, पुस्तकमस्ति चेत् पुस्तकत्वं, घटवत् अस्ति चेत् किं भवति,
तत्र घटवत् इति मतुप्रत्ययः भवति, अतः तत्र
चिन्तनं केवलं पदमस्ति
इत्युक्ते घटः एव इति अर्थे भवति.
न न भगिनि प्रश्नः केवलमेव इदानीमेव केवलमेतदस्ति घटस्य भावः घटत्वं पुस्तकस्य भावः पुस्तकत्वं घटवत् इति तस्य भावः कः तस्य धर्मः कः
घटवत् इत्यस्य धर्मः
पुस्तकम् इति पुस्तकस्य धर्मः पुस्तकत्वं घटः घटवत्त्वम् इदानीं तत्र घटवत्त्वं कुत्र वर्तते घटवत् इति पदार्थे वर्तते खलु
वर्तते
घटः घटवत् घटवत्त्वम् इति घटवत्त्वं कुत्र अस्ति घटवत् इति पदार्थस्य घटवत् इत्युक्ते किं भूतलं खलु घटवत्
भूतलमेव
भूतलमेव घटवत् अस्ति अतः घटवत्त्वं भूतले अस्ति
सत्यम्
अतः
घटवत् इति भूतलम् इति
घटवत्त्वम्
इति घटत्व घटवत् इत्यस्मिन् अस्ति अपि च घटवत् भूतलम् एव अतः तत्र घटवत्त्वं भूतले अस्ति
भूतले अस्ति अत्र वयं किं कुर्मः एतत् घटः घटवत् घटवत् नाम भूतलं घटवत् इति पदार्थे घटवत्त्वम् इति धर्मः वर्तते अतः घटवत्त्वं भूतले वर्तते इति वयम् अवगच्छामः खलु घटवत्त्वं भूतले अस्ति इति तत्र स्पष्टतया अस्माकम् अवगमनं भवति तत्र वयं किं कृतवन्तः गतवर्गे घटवत्त्वं नाम किम् इत्युक्ते वयम् उक्तवन्तः घटः एव इति घटः घटवत्त्वम् एव इति उक्तवन्तः अतः तत्र गन्धवत्त्वं नाम गन्धः
गन्धः एव
घटवत्त्वं नाम घटः इति उक्तवन्तः किमर्थम् एतत् कृतवन्तः इति एतत् सत्यमेव व्यवहार समीचीनमेव अस्ति किन्तु अन्यत् किमपि कारणमपि यदि वयं द्रष्टुं शक्नुमः तद् समीचीनं भवति इति उक्त्वा एषा चर्चा भवति योगेन्द्रमहोदय धन्यवादः भगिनि योगेन्द्रमहोदय प्रश्नः अस्ति वा
धन्यवादः
आं महोदय यथा गन्धवती पृथ्वी इति भवति तत्र विशेषणविशेषभावः भवति अपि च गन्धवत्त्वं पृथिव्याः लक्षणम् इति वक्तुं शक्नुमः एवमेव यदा घटवत् भूतलम् अस्ति तत्र विशेषणविशेषभावः अस्ति अतः घटवत्त्वं भूतलस्य लक्षणम् इति वक्तुं शक्नुमः
इति वक्तुं शक्नुमः किन्तु तत्र एतत् अत्र तु घटः भूतलस्य लक्षणं साक्षात् नास्ति खलु
आम्
नाम तत्र भूतलस्य भूतले सर्वदा घटः भवति इति नास्ति खलु
आम्
किन्तु एतादृश यत्र तत्र विशेषणविशेषभावः अस्ति अन्येषु तर्कग्रन्थवाक्येषु तर्कग्रन्थेषु वाक्येषु एतादृशलक्षणवाक्यमेव दत्तमस्ति गन्धवती पृथ्वी इति एतादृशलक्षणवाक्यमेव दत्तमस्ति किन्तु विज्ञायिकाः तद्वाक्यं न इच्छन्ति एतादृशवाक्यम् इच्छन्ति
समीचीनं
यतो हि किमर्थम् इत्युक्ते तत्र अग्रिम अन्यत् अपि तत्र लक्षणमपि पश्यतु तत्र तेजः लक्षणं वायोः लक्षणम् अथवा आकाशस्य लक्षणं तत्र किं भवति अस्तु तत्र स्पर्शः शीतस्पर्शः उष्णस्पर्शः तेजः लक्षणम् इति अस्ति तत्र कथं स्पर्शः तेजसी अस्ति इति द्रष्टव्यं दर्शनीयमस्ति अस्माभिः यदि वयं न प्रदर्शयामः सम्यक् अस्माकम् अवगमनं सम्यक् न भवति कथं यतोहि तत्र लक्षणं लक्ष्ये भवेत् अतः तादृशज्ञानार्थं वयं किं कुर्मः तत्र नैयायिका किं कुर्वन्ति एतादृशवाक्यं स्वीकुर्वन्ति यतोहि गन्धवत्त्वं पृथिव्याम् अस्ति इति सम्यक्तया अवगच्छामः यथा वयं कृतवन्तः तथा गन्धः पृथिव्याम् अस्ति, पृथिवी गन्धवती अस्ति, गन्धवती योगः भावप्रत्ययः किं भवति गन्धवत्वम् इति भवति, अतः गन्धवत्वं पृथिव्याम् अस्ति। यथा वयं यथा कृतवन्तः तथैव तत्र एतदपि कुर्मः, यतोहि तत्र तत्र गन्धः पृथिवी अपि तत्र पृथिवी किम् अस्ति गन्धवती अस्ति। इदानीं योगेन्द्रमहोदय वदतु गन्धवती इति पदार्थस्य धर्मः भावकृतेन किं पदं प्राप्नुमः?
गन्धवत्वं,
गन्धवत्वम्, अतः तत्र गन्धवत्वं भवति अत्र। गन्धवती इत्युक्ते पृथिवी गन्धवत्वं पृथिव्याम् अस्ति इति आगतं खलु तर्हि?
आम्।
अतः तत्र कोऽपि प्रश्नः एव नास्ति, कथं लक्षणं लक्ष्ये अस्ति इति प्रश्नः एव नास्ति। अत्र वयं किं कृतवन्तः, अस्तु गन्धवत्वं पृथिव्याम् अस्ति इति समीचीनम् अस्ति, वयम् उक्तवन्तः गन्धः एव गन्धवत्वम् इति उक्तवन्तः। नाम वयं किं कृतवन्तः, गन्धः अस्ति गन्धवत् मतुप् योजितवन्तः, तदनन्तरं भावः योजितवन्तः। अतः वयं किं कृतवन्तः, प्रथमतया मतुप् तदनन्तरं भावः, वयम् उक्तवन्तः गन्धवत्वं तृतीयमस्ति, गन्धवत्वं नाम गन्धः एव इति उक्तवन्तः। तत्र अन्यत् किमपि वक्तुम् इच्छति वा, किमर्थम् एतत् समीचीनमस्ति? गन्धवः नाम गन्धवत्वं, घटः नाम घटवत्वम् इति किमर्थम् एतत् समीचीनम् अस्ति इति अन्या रीत्या कोऽपि वक्तुम् इच्छति वा? तत्र वयं किं कृतवन्तः, मतुप् तदनन्तरं भावः, वयं मतुप् तदनन्तरं भावः वयम् उक्तवन्तः। तत्र वयं यत्र आरब्धवन्तः तत्र एव पुनः आगतवन्तः इति वदामः। घटः घटात् घटवत्, घटवत् घटवत्वं, किन्तु घटवत्वं नाम घटः इति उक्तवन्तः। किमर्थम् एतत् समीचीनमस्ति, समीचीनमेव, अन्यत् किमपि कारणं कोऽपि वदति वा? अस्तु, एतत् चिन्तनमपि कोऽपि किमपि चिन्तनम् अस्ति वा, कोऽपि वक्तुम् इच्छति वा?
अस्तु आचार्यजि, नमस्ते आचार्यजि। अत्र धर्मबोधः मुख्य आशयः अस्ति आचार्यजि नैयायिकानां, तस्मात् कारणेन ये मतुप् त्वाप्रत्यये योजयित्वा अन्यं लक्षणं पृथिवी गन्धव पृथिवी गन्धवती पृथिवी इति सामान्यवाक्यं, नैयायिकशैल्याः गन्धवत्वं पृथिव्याः इति अत्र धर्मबोध स्पष्टधर्मबोधार्थं कृतवन्तः आचार्यजि।
समीचीनं महोदय, सत्यं समीचीनं।
नमस्ते आचार्य, नमस्ते आचार्यजि।
किन्तु समीचीनमस्ति, प्रश्नः अस्ति, घटः प्रथमतया मतुप् घटवत्, तदनन्तरं घटवत्वम् इति उक्तवन्तः, घटवत्त्वम् उक्तवन्तः, एतत्तु घटः एव, नाम वयं घटात् आरभ्य घटवत् इति प्राप्तवन्तः, तदनन्तरं घटवत्वम् इति अपि प्राप्तवन्तः। इदानीं वयं वदामः घटवत्वं नाम घटः एव, तत्र किम्
प्रकृत्यर्थम्
आगच्छति आचार्य? सत्यं महोदय, अतः एतस्य निदर्शनार्थम् एतत् कुर्मः। अत्र किं कृतवन्तः, प्रथमतया मतुप् तदनन्तरं भावः। वयं किम् उक्तवन्तः, मतुप् उपरिगमन अधोगमनार्थं, भावः उपरिगमनार्थं। यदि वयम् एतत् कुर्मः, घटः इति आरम्भ स्वीकुर्मः, घटे कः धर्मः अस्ति? घटे
घटत्वं
घटत्वम् अस्ति अतः घटत्वम् इति स्वीकुर्मः घटत्वम् इति अतः प्रथमतया भावप्रयोगः भावप्रत्ययः अत्र भावप्रत्ययः अत्र अतः घटः अस्ति घटात् आरभ्य वयं भावप्रत्ययस्य योजनेन घटत्वम् इति प्राप्तवन्तः इदानीं मतुप् नाम यस्मिन् घटत्वम् अस्ति इति कुर्मः अतः तत्र अधोगमन गमनं भवति अतः घटत्ववान् इति भवति अथवा घटत्ववत् इति अपि भवति नपुंसकलिङ्गे अतः इदानीं मतु प्रत्ययस्य योजनेन घटत्ववान् इति भवति अतः तत्र उपरि गमनार्थं भावः अधोगमनार्थं मतु इदानीं वयं किं कृतवन्तः घटः घटे घटत्वम् अस्ति इदानीं मतु प्रत्ययस्य अर्थः कः यस्य यस्मिन् वा यस्मिन् घटत्वम् अस्ति सः घटत्ववान् अथवा यस्य घटत्वम् अस्ति सः घटत्ववान् अतः घटत्ववान् इत्युक्ते कः कस्मिन् कस्मिन् पदार्थे घटत्वम् अस्ति घटे अतः घटत्ववान् नाम घटः अतः घटत्ववान् इत्युक्ते घटः नाम भावः तदनन्तरं मतु इति वयं यदि कुर्मः वयं घटः एव प्राप्नुमः घटारभ्य भावः भावप्रत्ययस्य अनन्तरं मतुप् इति कुर्मश्चेत् पुनः घटः एव प्राप्नुमः अतः भावः उपरि गमनार्थं मतुप् अधोगमनार्थं घटः आरभ्य घटत्वं पुनः घटत्ववत् इत्युक्ते घटत्ववान् इत्युक्ते घटः तथैव यदि वयं तत्र भूतलमिति अस्ति भूतलात् उपरि गम तत्र घट हा घट घटः अस्ति क्षम्यतां तत्र गन्धः अस्ति गन्धः पृथिव्याम् अस्ति अतः गन्धवती इति आगच्छति तदनन्तरं तत्र मतुप् तदनन्तरं भावः तत्र वयं किम् उक्तवन्तः गन्धवत्वं नाम गन्धः एव यथा घटः घटत्वं घटत्ववान् घटः एव अत्र तत्र स्थितिद्वयमस्ति अत्र प्रथमतया भावः तदनन्तरं मतुप् अत्र प्रथमतया मतुप् तदनन्तरः भावः किन्तु अत्र घटः एव प्राप्नुमः तथैव अत्रापि गन्धः एव प्राप्नुमः इति सिद्धान्तः तावदेव अत्र स्पष्टमस्ति तत्र प्रायशः वक्तव्यम् अस्ति अत्र तु किमपि नास्ति तत्र गन्धः घटः घटत्वं घटत्ववान् नाम घटः एव किन्तु एतदपि यदि एतत् उदाहरणं यदि पश्यामः एतत् समीचीनतया अवगन्तुं शक्नुमः अस्तु गन्धः प्रथमतया मतु तदनन्तरं भावः यदि कुर्मः यत्र आरब्धवन्तः तद् तं पदार्थमेव प्राप्नुमः यथा अत्र घटः इति पदार्थः एव तत्र आरम्भः घटत्वं भावः तदनन्तरं मतुप् घटत्ववान् नाम घटः गन्धः गन्धवती इति प्रथमतया मतुप् तदनन्तरं भावः गन्धवत्वम् अथवा गन्धवत्वं नाम गन्धः इति गतवर्गे उक्तम् अस्तु एतावत् समीचीनमिति मन्ये प्रश्नः अस्ति वा एतस्य चित्रस्य एतस्य प्रक्रियायाः एतस्याः प्रक्रियायाः उपयोगः कः इत्युक्ते किमर्थं गन्धः नाम गन्धवत्वं कथम् एतत् वयम् अवगन्तुं शक्नुमः तत् समीचीनम् इति तावदेव तस्य केवलं तद् सः एव उपयोगः अस्ति अस्तु अतः तत्र इदानीम् अग्रे प्रश्नः अस्ति वा एतावत् अस्मिन् विषये अथवा क्षम्यताम् अस्मिन् विषये अथवा अस्मिन् विषये प्रश्नः अस्ति वा
स्पष्टमाचार्य स्पष्टमाचार्य
इदानीं तत्र अग्रे गन्तुं तत्र द्वयम् अपेक्षितमस्ति, तत्र अंशद्वयम्, अतः एकवारं तत् चित्ररूपेण पश्यामः, तदनन्तरं तत्र लेखः यः अस्ति तं पठामः. गन्धः इति गुणम् अपि तत्र पृथिवी, पृथिव्याम् अस्ति. एषः गुणः अस्ति, अपि पृथ्वी गुणः अस्ति, गन्धः इति गुणः अस्ति. पृथ्वी इति किं भवति तत्र मतुप्, एषः गुणः पृथिव्याम् अस्ति, अतः पृथ्वी किं भवति मतुप्रयोजनेन
गन्धवति.
गुणः एषः गुणः पृथिव्याम् अस्ति इत्युक्त्वा पृथ्वी किं भवति
गन्धवति.
गन्धवति गन्धः पृथिव्याम् अस्ति, अतः गन्धवति. एषः गुणः पृथिव्याम् अस्ति, गुणयोगः मतुप् किं भवति
गुणि,
तत् इनि अस्ति. गुणयोगः इनि प्रत्ययः गुणि, गुणयोगः मतुप्. गन्धयोगः वदतु महोदय.
गुणवत्,
गुणवत्, गुणवत् इति भवति तत्र गुणवती, गुणवत् इति गुणः यस्मिन् अस्ति अथवा यस्याम् अस्ति गुणवती एतादृश भवति. अतः उपरि गुणः अस्ति, अधोभागे गुणवत् अस्ति. आश्रयः गुणवत्, गुणस्य आश्रयः गुणवत्, गुणः उपरि. गन्धः इति उदाह गन्धः गन्धवती पृथ्वी, अस्मिन् वाक्ये गन्धः इति गुणः उपरि अस्ति, आदेयः पृथ्वी इति अधिकरणम्, अधिकरणम् अधोभागे अस्ति, आदेयः उपरि अस्ति. गुणः इति उपरि, गुणवत् इति अधोभागे. एतद् सम्यक्तया यदि स्थापयामः एतस्य लेखस्य अवगमनं सुलभं भवति. अस्तु, अतः तत्र गुणः गुणवत्, गुणवत् अधोभागे, गुणः उपरि. अस्तु, तर्हि इदानीं तत्र साक्षात् लेखः यः अस्ति तं पठामः.
महोदय, एकः प्रश्नः महोदय, न अवगतं किञ्चित्, किञ्चित् उपरि स्क्रोल् करोति वा उपरि?
करोमि.
तत्र घटः घटः घटवत् इति तस्य मतुप्रत्ययः, घटवत् इति भूतलमस्ति, घटवत् इत्यस्य भाव इति घटवत्त्वम् इति अस्ति. एतावत्पर्यन्तं मया अवगतं, परन्तु घटवत्त्वम् अत्र घटः ईक्वल्स् टु घटवत्त्वम् इति कथं भवति इति न अवगतं महोदय.
अतः एव एतत् सर्वं कृतवन्तः वयम्. अतः एव समीचीनं भगिनि, अतः तत्र समीचीनं, तत्र भवत्याः प्रश्नः एषः अस्ति. अस्तु, प्रथमतया वयं मतुप् कृतवन्तः, घटवत् इति प्राप्तवन्तः खलु. तदनन्तरं वयं भावः इति कृतवन्तः, भावात् वयं घटवत्त्वम् इति प्राप्तवन्तः. सिद्धान्तः तत्र विद्याधर्यम् उक्तमस्ति, नाम तत्र घटवत्त्वम् इत्युक्ते घटः एव इति, सः एव सिद्धान्तः विद्याधर्यं दर्शितः लिखितः अस्ति. घटवत्त्वं नाम घटः नाम,
परन्तु
वदतु भगिनि.
घटवत् इति भूतलस्य विशेषणं भवति, तदा घटवत्त्वम् इति भूतलं भवेत् खलु? घटः कथम् इति न अवगतं, क्षम्यतां.
घटवत् इत्युक्ते कः?
घटवत् इति भूतलं,
भूतलं. इदानीं घटवत् इति भूतलं, घटवत्त्वम् इति घटवत् इति पदार्थस्य धर्मः खलु. अतः घटवत्त्वं कुत्र अस्ति? घटवत्त्वं घटवत् इति पदार्थे अस्ति,
भूतले अस्ति.
इत्युक्ते कः? घटवत् इत्युक्ते किं? भूतलमेव. घटवत् इत्युक्ते भूतलम्. अतः घटवत्त्वं कुत्र अस्ति? भूतले. घटः अपि भूतले अस्ति, घटवत्वम् अपि भूतले अस्ति.
अतः भावः पदार्थः अपि भूतले अस्ति, तस्य भावः अपि भूतले अस्ति, अतः तत्र ईक्वल्स् टु चिह्नः आगच्छति. पदार्थः अपि भावः अपि
अतः मतु तदनन्तरं भावः एतत् केवलं भावः नास्ति खलु, तत्र एतत् घटत्वं नास्ति, एतत् घटवत्वम् अस्ति खलु, तत्र घटत्वम् उपरि अस्ति खलु, भूतलमस्ति, घटः अस्ति, घटत्वम् उपरि अस्ति खलु,
किन्तु
एतत् घटवत्वम् इति अस्ति. अतः प्रथमतया मतुप् तदनन्तरं भावः नाम तेषां सिद्धान्तः किं वदति, यदि मतुप् कुर्मः तदनन्तरं भावः कुर्मः तत्र मतुपेन किं परिवर्तनं जातं तस्य विपरीतं भावः प्रत्ययेन कर्तुं शक्नुमः इति वदति खलु. वाट् एवर् चेञ्ज् इस् डन् बै मतुप् केन् बि अण्डन् बै डूयिङ्ग् भावः, बिकास् यु गेट् बेक् टु दि ओरिजिनल् प्लेस्. तत्र विपरीतदिशि गच्छति अपि तत्र यत्र आरब्धवन्तः तत्र एव तदेव प्राप्नुमः इति सिद्धान्तः.
मया यत् अवगतं तदा तत् अहं वदामि.
वदतु भगिनि, समीचीनमेव अस्ति.
घटः भूतलं, घटः एकः पदार्थः, घटः भूतले वर्तते, अतः घटवत् भूतलं घटवत् भवति मतु प्रत्ययेन, यस्मिन् अस्ति यस्य अस्ति इति कारणात्. अतः भूतलम् इति घटवत् भवति, घटवत् इति भूतलस्य विशेषणम्. अधुना घटवत् इत्यस्य भावः घटवत्वं, घटवत्वं भूतले वर्तते, अपि च घटः भूतले वर्तते, अतः घटः ईक्वल्स् टु घटवत्वम्
इति सिद्धान्तः.
इति सिद्धान्तः अस्तु.
सिद्धान्तः यदि मतुप् कुरु मतुप् प्रथमतया मतुप् कुर्मः एव एतत् यदि प्रथमतया मतुप् कुर्मः तदनन्तरं भावः
भावः
तत्र किं किं प्राप्नोत् तत्र किमपि परिवर्तनं न भवति. प्रथमतया घटात् घटवत् घटवन्तः, यदि भावः कुर्मः वयं विपरीतदिशि आगच्छामः पुनः घट एव प्राप्नुमः इति अस्ति सिद्धान्तः. सिद्धान्तस्य अवगमनार्थम् अहं केवलं तत्र किञ्चित् परिवर्तनं कृतवान्, अतः प्रथमतया मतु मास्तु, प्रथमतया भावः कुर्मः घटः प्रथमति. अत्र सिद्धान्तं मतु प्रथमं तदनन्तरं भावः खलु, किन्तु केवलम् अवगमनार्थम् एतत् कुर्मः, प्रथमतया भावः कुर्मः, अतः घटः अस्ति, घटस्य भावः
घटत्वम्.
इदानीं मतु योजयामः, तत्र भावः प्रथमतया तदनन्तरं मतु द्वितीय
सोपानं.
तत्र किं भवति, घटत्वं भावः तदनन्तरं घटत्ववान् अथवा घटत्ववत् इति मतु प्रत्ययेन आगतम्. घटत्ववान् कः अस्ति,
घटः एव अस्ति,
सः एव घटत्ववान् खलु. अत्र सुलभतया अवगन्तुं शक्नुमः, घटः एव घटत्ववान् खलु. यदि एतद् अवगच्छामः तर्हि अत्र ईक्वल् सैन् किमर्थमस्ति इति अवगन्तुं शक्नुमः खलु. यतोहि भावः तदनन्तरं मतु भवति चेत् यत्र आरब्धवन्तः तत्र तदेव तत्रैव प्राप्नोति, नाम तत्र प्रयाणं कुत्र अपि न गतम्,
सर्कल् कम्प्लीट्,
सर्कल् कम्प्लीट् इति तथैव अत्रापि सर्कल् कम्प्लीट् अभवत् इति वक्तुम् इष्टवान् तावदेव. अत्र सिद्धान्तः इति अस्ति, सम्यक् एव अस्ति, किन्तु यदि एतत् उदाहरणं पश्यामः तत्र अस्तु एतत् अहं स्वीकर्तुं तत्र अङ्गीकर्तुं शक्नोमि इति भवति खलु. तत्र एतत् अत्र ईक्वल् सैन् सुलभमस्ति खलु,
अत्र सुलभमस्ति. प्रथमः प्रसङ्गः किञ्चित्
तत्र क्लेशः आसीत्. एतत् उदाहरणं पश्यामः तदनन्तरं तद् एतत् यदि पश्यामः अस्तु एतत् अहम् अङ्गीकर्तुं शक्नोमि, तत्र गन्धवत्वं नाम गन्धः एव इति कर्तुं शक्नोमि.
आं महोदय, अवगतं, धन्यवादः महोदय.
अस्तु, अत्र अन्य कोऽपि समीचीनं, धन्यवादः भगिनि. तत्र अन्य कोऽपि वदतु तत्र तस्मिन् विषये, तत्र कः वदति तत्र एषः एतत् उदाहरणम् अपि एतत् उदाहरणं तत्र किं कृतवन्तः, किमर्थं समीचीनम् अस्ति इति तत्र राजी भगिनी वदति वा अथवा पद्मा भगिनी एतत् उदाहरणं वदति वा?
प्रयत्नं करोमि. अत्र मम सन्देहः अस्ति, कथं वयं घटवत्वम् इति तत्र भावः अस्ति, घटः इति पदार्थः अस्ति, किमर्थं तस्य तेषां तोलनं किमर्थं भवति,
कीदृश गतवती वा? किन्तु प्रथमतया एतत् करोतु, प्रथमतया एतत् करोतु, कुर्मः भगिनि. तत्र घटः अस्ति, घटस्य भावः कः? घटत्वं भावप्रत्ययस्य योजनेन घटत्वं प्राप्तवन्तः. घटत्वम् इति तस्य मतुप् नाम यस्मिन् घटत्वम् अस्ति अथवा यस्य घटत्वम् अस्ति सः कः? सः
घटत्ववान्.
घटत्ववान् मतुप् इति प्रत्ययस्य अर्थः अस्ति यस्य यस्मिन् वा इति, तत्र घटत्ववान्. घटत्ववान् कः अस्ति?
सः घटः एव.
हा, यतोहि घटे एव घटत्वम् अस्ति खलु, अतः घटः नाम घटत्ववान् खलु. अतः तत्र वयं किं कृतवन्तः, भावप्रत्यय प्रथमतया तदनन्तरं मतुप्. तथैव यदि वयं प्रथमतया तत्र भावः तदनन्तरं मतुप् सिद्धान्ते किम् अस्ति, प्रथमतया मतुप् तदनन्तरं भावः यदि कुर्मः सः एव पदार्थः प्राप्नुमः इति अस्ति. नाम तत्र घटः घटवत् घटवत्वम् इति धर्मः, अत्र किं प्रत्यय मतुक् तदनन्तरं भावः यदि कुर्मः घटः एव प्राप्नुमः इति अस्ति. एतस्य अवगमनार्थम् अत्र किमर्थम् ईक्वल् सैन् इति भवत्याः प्रश्नः अपि अस्ति खलु. एतस्य ईक्वल् सैन् अत्र ईक्वल् सैन् किमर्थम् अस्ति इति तस्य अवगमनार्थम् एव अहं क्षम्यतां तत्र रोटेट् अभवत्. एतस्य अवगमनार्थं किमर्थम् ईक्वल् अत्र अस्ति इति तस्य अवगमनार्थमेव एतत् वयं कृतवन्तः. अत्र ईक्वल् सैन् सुलभमस्ति अवगन्तुं खलु.
प्रथमं भावप्रत्ययः तदनन्तरं मतुप् चेत् प्रक्रिया सुलभमस्ति,
अवगन्तुं. किन्तु तत्र किं तेन वयं किम् अवगच्छामः, भावः अपि मतुप् विपरीतदिशि सन्ति. नाम यदि भावः अस्ति बेङ्गलूरुतः मैसूरुनगरं गच्छामः इति चिन्तयतु, मतुप् किं करोति, मैसूरुनगरतः पुनः बेङ्गलूरुनगरं प्राप्नुमः खलु, यतोहि दिशि रिवर्स् करोति खलु तत्. समीचीनं वा? भावः किं करोति, तस्य विपरीतं मतुप् करोति खलु.
तद् सिद्धान्तं तादृशम् अस्ति इति वयं स्वीकुर्मः
वा इति. तथैव तत्र प्रथमतया मतुप् कुर्मः तदनन्तरं भावः कुर्मश्चेत् मतुप् इति तस्य विपरीतं भावः करोति, अतः घटवत्वं नाम घटः इति सिद्धान्तः वदति.
अस्तु,
समीचीनं वा?
तद् प्रक्रिया सिद्धान्तः तादृशम् अस्ति इति वयं मनसि स्थापयित्वा पश्यामः चेत् वयं तद् स्वीकुर्मः. मनः प्रश्नं पृच्छन् अस्ति एक्चुलि, किमर्थं तादृशं भवति इति तद् मनः करोति तदेव.
अत्र एतत् अङ्गीकर्तुं शक्नुमः, किन्तु यदि एतत् उदाहरणं पश्यामः सुलभं भवति किमर्थम् अत्र ईक्वल् अस्ति इति. समीचीनं वा?
धन्यवादः.
समीचीनम्, अस्तु तर्हि अग्रे तत्र लेखः यः अस्ति तं लेखं पठामः तर्हि. तत्र एतावत् तत्र उषा भगिनी अपि तत्र अन्य कोऽपि तत्र कः अथवा का पठति? शैलजा भगिनी पठितुम् इच्छति वा लेख? अस्तु, तर्हि उषा भगिनी तत्र शिष्यः अपि तत्र शैलजा भगिनी आचार्यः इति एकवारं लेखं पठामः पूर्णलेखम्.
आं महोदय. श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति?
आम्.
श्वेता माला, श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु?
श्रूयन्ते, न श्रूयन्तां नाम तेन का हानिः?
श्वेता माला इत्यादौ श्वेतादीनां विशेष्य निघ्नता दृश्यते. भवता उच्यते पुंसि एव इति.
सर्वदा मया स्मर्यते.
स्मर्यते,
स्मर्यते,
स्मर्यते, निच्छति,
स्मर्यते, प्रिण्ट् इस् इन् द फोन्. अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति. प्रसिद्धभेदात् प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते किञ्चित्,
क्वचित्
क्वचित्. अतः अर्थ निश्चित्य एव प्रश्नः करणीयः.
तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति.
आम्, अतः एव उभयविधम् उत्तरं सम्भवति.
किं तत् अर्थद्वयम्?
श्वेतादयः गुणवाचकाः, गुणवद्वाचकाः च अपि. अतः गुणवाचकत्वं गुण वद्वाचकत्वं चेति अर्थद्वयं तेषाम्.
भवतः कथनस्य आशयः न अवगतः मया.
पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः. श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवद्वाचकः.
गुणवद्वाचकत्वे विशेषणत्वेन प्रयोगः, तन्नाम विशेष्यनिघ्नता.
आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्ववान् श्वेतत्वयुक्तं पुष्पम् इत्यर्थः. अतः गुणवद्वाचकता इति उच्यते.
यदा विशेष्यनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः. यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम्.
गुणवाचकत्वे तु पुंस्त्वम् एव. गुणवाचकत्वे तु पुंस्त्वम् एव. प्रयोगः तु पूर्वं दर्शितः.
अत्र प्रमाणं किम्?
अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोशः वदति गुणे शुक्लादयः, पुंसि गुणिलिङ्गास्तु तद्वति इति.
गुणवाचकत्वे शुक्लादीनां पुंस्त्वं, गुणिनां गुणवतां, गुणिनां निर्देशावसरे ते विशेष्यनिघ्नाः इति तस्य तात्पर्यं खलु? पुनर् पठामि महोदय. गुणवाचकत्वे शुक्लादीनां पुंस्त्वं, गुणिनां निर्देशावसरे ते विशेष्यनिघ्नाः इति तस्य तात्पर्यं खलु?
शुक्लः पटः इत्युक्तौ विशेष्य निघ्नातः. पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्तत्वं. प्रथमे पुंस्तत्वं पुंस्त्वं 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 प्रथमे उदाहरणे गुणिवाचकता, द्वितीये उदाहरणे गुणवाचकता
इति. धन्यवादः. तत्र
धन्यवादः.
तत्र श्वेतः इति तत्र वस्त्रम् अस्ति, वस्त्रस्य वर्णः कः इत्युक्ते श्वेतः इति वदामः. किन्तु तत्र श्वेतामाला इति अपि प्रयोगः दृश्यन्ते इति. तत्र किमर्थं तत्र, अतः तत्र पुंसि एव वा अथवा तत्र विशेषणे अपि भवितुम् अर्हति वा इति प्रश्नः अस्तु. इदानीं तत्र पुनः तत्र पङ्क्तिशः पश्य पठामः, अवगच्छामश्च. अतः तत्र आरम्भे तत्र चन्द्रमती भगिनी एतावत् पठितवती वा अद्य? न न पठितुम् इच्छति वा? अस्तु, नो चेत् तत्र
प्रयत्नं करोमि.
अस्तु भगिनि, अस्तु. तत्र श्वेतरक्तादयः प्राप्तवती वा? नास्ति. अस्तु, ओहो अस्तु अस्तु. तर्हि तत्र नीता भगिनी तत्र आरम्भं कर्तुम् इच्छति वा तत्र?
आम् आचार्य. शुक्लादीनां मूंसत्वं विशेषनिघ्नता चापि. शिष्यः वदति, श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति? आचार्यः वदति, आम्.
तत्र प्रश्नः कः? श्वेतरक्तादयः नाम
श्वेतरक्तादयः किं पुंसि एव सन्ति इत्युक्ते श्वेतः श्वेतः वर्णः अर्थे किं तेषां कथं पुल्लिङ्गत्वम् एव
न भवन्ति, केवलं पुल्लिङ्गरूपम् एव भवति. वर्णः कः इत्युक्ते श्वेतः वर्णः इति. किमर्थम् इति वा इति प्रश्नः. वर्णः सर्वदा पुल्लिङ्गे एव भवति वा इति. वर्णः नाम अस्माकं न्यायवर्गे वर्णः इति त्यक्त्वा वयं किं वदामः तत्र? रूपं गुणः इति. गुणः वर्णः गुणः अस्ति. अतः तत्र गुणः सर्वदा श्वेत इति गुणः सर्वदा पुल्लिङ्गे एव अस्ति वा इति प्रश्नः. अतः आचार्यः किं वदति?
आचार्यः वदति, आम् सत्यम् इति. अनन्तरं शिष्यः पृच्छति, श्वेतामाला, श्वेतं वस्त्रम् इत्यादयः प्रयोगः श्रूयन्ते खलु? अत्र प्रश्नः अस्ति, शिष्यस्य प्रश्नः अस्ति, यदि पुल्लिङ्गत्वं प्राप्नोति श्वेतः वा रक्तः वा, तत् कथं श्वेतामाला, श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते? तत्र आचार्यस्य शिष्यः पृच्छति, विशेषणपदं श्वेत इति स्त्रीलिङ्ग, माला विशेषणपदमस्ति, माला इति विशेष्यपदमस्ति, माला स्त्रीलिङ्गं प्राप्नोति अतः श्वेता अपि तस्य विशेषणपदरूपेण आगच्छति अतः श्वेता अपि स्त्रीलिङ्गत्वं प्राप्नोति. कथं तेन प्रकारेण एव श्वेतं वस्त्रमपि, वस्त्रं विशेष्यपदं नपुसकलिङ्गे अस्ति, तस्य विशेषणपदमस्ति श्वेतम् अतः श्वेतम् अपि नपुसकलिङ्गत्वं प्राप्नोति. शिष्यः पृच्छति, कथम् एतादृशाः प्रयोगाः श्रूयन्ते खलु? अनन्तरम् आचार्यः वदति, श्रूयन्तां नाम तेन का हानिः? एतस्मिन् प्रयोगे कोऽपि दोषः नास्ति इति आचार्यः वदति. अनन्तरं शिष्यः पृच्छति श्वेतामाला इत्यादौ श्वेतादीनां विशेषनिघ्नता दृश्यते भवता उच्यते पुंसि एव इति अत्र श्वेतामाला वा श्वेतं वस्त्र विशेषणत्वेन प्रयोगः विशेषणत्वेन प्रयोग इत्युक्ते विशेष्य निघ्नता एव तस्मिन् प्रयोगे तस्मिन् प्रयोगेषु दृश्यते
विशेषनिघ्नता नाम यस्य विशेषस्य लिङ्गमेव विशेषणस्य अपि लिङ्गं भवति नाम विशेषणस्य लिङ्गस्य आश्रयः तत्र विशेषणस्य लिङ्गं कीदृशं भवति इति कथं भवति तस्य आश्रयः तत् कथं निर्णयामः विशेष्यस्य लिङ्गं दृष्ट्वा विशेषणस्य लिङ्गस्य निर्णयं भवति अतः तत्र विशेषनिघ्नता विशेष्यस्य विशेषमेव विशेष्यस्य लिङ्गमेव आश्रयः विशेषणस्य विशेषणस्य लिङ्गस्य अतः विशेष्यनिघ्नता नाम विशेष्यम् अनुसृत्य विशेषणं भवति विशेष्यस्य लिङ्गं दृष्ट्वा विशेषणस्य लिङ्गं तस्य निर्णयः भवति किन्तु तादृशमस्ति तत्र श्वेतामाला इति विशेषणम् इति अस्ति तथा श्वेता इति स्त्रीलिङ्गे अस्ति किन्तु भवान् उक्तवान् तत्र पुंसि एव भवति पुंसि एव नाम के सर्वदा पुल्लिङ्गे एव भवति तत्र समस्या अस्ति खलु तत्र नाम सर्वदा पुंसि वा अथवा विशेषणं विशेषनिघ्नता अपि अस्ति वा नाम स्त्रीलिङ्गरूपमपि भवितुम् अर्हति वा इति प्रश्नः खलु
इत्युक्ते कदा विशेषम् अनुसृत्य विशेषणपदस्य लिङ्गं विशेषणपदस्य निर्णयं करणीयं वा कदा पुंसि एव भवति इति प्रश्नः
अथवा एकः दोषाय अस्ति अपि एकं समीचीनम् अपि एकं समीचीनं नास्ति इति अपि अस्ति वा इति प्रश्नः अतः तत्र प्रयोगद्वयम् इति वर्तते एकं वदति पुंसि एव अन्यत् वदति अस्तु न तत्र त्रिषु लिङ्गेषु भवति किं समीचीनम् इति प्रश्नः
आचार्य सर्वदा मया स्मार्यते
धन्यवादः एतावत्
धन्यवादः
भगिनि अस्तु अग्रे तत्र धनश्री भगिनी अग्रे पठितुम् इच्छति वा अग्रे
आचार्य सर्वदा मया स्मार्यते अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित् अतः अर्थं निश्चित्य एव प्रश्नः करणीयः शिष्यः तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति
आचार्य भगिनी तत्र सर्वदा मया स्मार्यते तस्य वाक्यस्य तत्र किञ्चित् वदतु
अत्र अस्ति अर्थादिभेदात् लिङ्गादिभेदः सम्भवति सर्वदा मया स्मार्यते अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति
तत्र उदाहरणं तत्र अर्थभेदः लिङ्गभेदेन तत्र अर्थभेदेन लिङ्गभेदः भवति इति तत्र तत् प्रदर्शितं साधारण उदाहरणम् अस्ति तत्र मित्रम् इति स्वीकुर्मः मित्रः इति स्वीकुर्मः तत्र अर्थभेदः अस्ति वा
हा मित्रमित्युक्ते सुहृदः मित्रः इत्युक्ते सूर्यः
तादृश अत्र अर्थभेदात् लिङ्गभेदः लिङ्गे अन्यत् अस्ति पुल्लिङ्गे अतः तत्र अर्थभेदेन लिङ्गभेदः अथवा लिङ्गभेदेन अर्थभेदः तादृशं भवति सम्भवति खलु अतः अत्रापि
प्रसङ्गभेदात् अपि अर्थाः भिद्यन्ते क्वचित्
अतः
एकस्मिन् एव शब्दस्य कदाचित् भिन्ने प्रसङ्गे भिन्नम् अर्थम् अभिप्रेतं भवितुं शक्नोति
अतः अर्थं निश्चित्य
एव अर्थं किमस्ति इति प्रथमं निश्चित्य कृत्वा तदा एव प्रश्नः करणीयः
इति वदति.
अस्तु तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति. नाम श्वेत आदिवर्णानां शुक्लश्वेत आदि तेषाम् अर्थद्वयम् अस्ति किमिति सः शिष्यः पृच्छति. आचार्य आम् अतः एव उभयविधम् उत्तरं सम्भवति. नाम कस्य अर्थस्य कृते पुल्लिङ्गः अभिप्रेतः, कस्य अर्थस्य कृते नपुंसकलिङ्गः अभिप्रेतः. शिष्यः किं तत् अर्थद्वयम्? आचार्य श्वेतादयः गुणवाचकाः, गुणवत् वाचकाः चापि. नाम श्वेतवर्ण इति गुण अपि गुण इति अर्थमपि श्वेतस्य भवितुम् अर्हति, अथवा गुणि नाम यस्य गुणः अस्ति तस्य विषये अपि अर्थः भवितुं शक्नोति. गुणवद् वाचक
इति अस्ति, इति अस्ति तत्र. अस्तु अग्रे समीचीनं भगिनि. तत्र गुणवाचकत्वम् अपि गुणवत् वाचकत्वं, तत्र श्वेतादयः गुणवाचकाः गुणवत् वाचकाः चापि. तत्र पुष्पस्य वर्णः श्वेतः इति, तत्र किं भवति? पुष्पस्य वर्णः श्वेतः, तत्र श्वेतः
इत्युक्ते
गुणः कः इति वदति खलु श्वेतस्य. तत्र पुष्पस्य वर्णः श्वेतः इति प्रयोगे वर्णः गुणः अस्ति. श्वेतः इति पदं किं वदति? वर्णः तत्र कीदृशः अस्ति इति. अतः तत्र गुणवाचकपदम् अस्ति श्वेतः इति. अपि तत्र यदि तत्र श्वेता माला इति अस्ति चेत् तत्र श्वेता किं वदति?
तदा श्वेता इति माला शब्दस्य विशेषणमस्ति, अतः माला एव तस्य अर्थः.
माला एव माला इति कीदृशी इति वदति, माला कीदृशी इति वदति माला इति. अतः तत्र मालात् किं भवति? गुणवत् इति पदार्थः, यस्मिन् यस्यां गुणः अस्ति सा माला गुणवती माला भवति. गुणवती कीदृशी अस्ति इति वदति. अतः तस्मिन् सन्दर्भे श्वेता इति गुणवत् वाचक इति भवति, गुणवत् वाचकशब्दः इति भवति. अतः तत्र श्वेतादयः गुणवाचकाः गुणवत् वाचकाः च अपि भवन्ति. अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषां. नाम अर्थद्वयं किमस्ति? प्रथमार्थः किम् अस्ति?
गुणवाचकत्वं.
गुणवाचकत्वं द्वितीय अस्ति गुणवत् वाचकत्वम्. अतः तत्र गुणवाचकत्वम् अपि गुणवत् वाचकत्वं. गुणवाचकत्वं कुत्र अस्ति?
कुत्र नाम
कुत्र अस्ति गुणवाचकत्वं कुत्र अस्ति? यदि तत्र पुष्पस्य वर्णः श्वेतः इति वदामः, गुणवाचकत्वं
श्वेत इति वर्णे एव गुणवाचकत्वं.
श्वेत इति पदे, श्वेत इति पदे पदं गुणवाचक
पदे
पदे श्वेतं श्वेतः पुष्पस्य वर्णः श्वेतः इति वाक्यमस्ति. तत्र श्वेतः इति पदमस्ति, शब्दः अस्ति, तस्मिन् शब्दे गुणवाचकत्वम् अस्ति खलु. अपि तत्र माला श्वेता माला इति अस्ति, तत्र कस्मिन् पदे गुणवत् वाचकत्वम् अस्ति?
श्वेता इति पदे,
श्वेता इति पदे गुणवत् वाचकत्वं तत्र. प्रश्नः आसीत् वा कस्यापि? अस्तु अस्तु तर्हि तत्र अस्तु समीचीनम्.
एकवारं करोमि महोदय, गुणवत् वाचकं गुणवाचकं भेदं कथमस्ति इति एकवारमपि वदति वा
चन्द्रमति भगिनि? प्रश्नः पुनः पृच्छतु भगिनि.
गुणवत् वाचकं गुणवाचकं भेदः कथमस्ति इति एकवारमपि कृपया वदतु महोदय.
अस्तु भगिनि, तत्र नाम यदि तत्र
श्वेदपुष्पं तत्र श्वेदगुणमस्ति पुष्पस्य गुणः अस्ति श्वेदः इति तद् गुणवाचकं गुणवत्वाचकम् इत्युक्ते किमस्ति
अस्तु भगिनि तत्र अस्तु तत्र स्क्रीन् पश्यति खलु तत्र स्क्रीन् दृश्यते वा तत्र गन्धः अस्ति पृथ्वी अस्ति तत्र गन्धः पृथिव्याः गुणः गन्धः इति अस्ति चेत् तत्र तादृशम् अस्ति तत्र पुष्पस्य वर्णः श्वेतः इति अतः तत्र वर्णः इत्युक्ते गुणः खलु तत्र अतः श्वेतः इति कस्य वर्णनं करोति श्वेतः इत्युक्ते वर्णस्य वर्णः तत्र गुणस्य गुणं वदति खलु श्वेतः श्वेतः इति पदं गुणः कः इति वदति खलु अतः श्वेतः इति पदं गुणवाचकपदम् अस्ति खलु तत्र वाचकं नाम किं वदति तत्र तस्य लक्ष्यम् अस्ति गुणं श्वेतः पदस्य लक्ष्यम् अस्ति गुणं खलु अतः गुणवाचकं पदं श्वेतः गुणवाचकं पदं किन्तु यदि श्वेता माला इति वदामः तत्र श्वेता का अस्ति श्वेता माला इति तत्र गुणः नास्ति श्वेता इत्युक्ते यथा तत्र उत्तम अस्तु तत्र अवगमनार्थम् एतत् स्वीकुर्मः अवगमनार्थम् एतत् स्वीकुर्मः
तत् श्वेतपुष्पं तत्रापि अवगमनार्थम्
अस्तु भगिनि भगिनि एतद् उदाहरणं स्वीकुर्मः उन्नतः बालकः उन्नतः इति पदं किं करोति विशेषणमस्ति उन्नतः इति विशेषणमस्ति बालकः इति विशेष्यम् अस्ति उन्नतः कः अस्ति
बालकः
बालकः एव उन्नतः अस्ति खलु इदानीं तत्र तादृशं तत्र श्वेता माला इति अस्ति चेत्
माला एव श्वेत
अस्ति अतः एतत् पदं माला कीदृशी इति एव वदति खलु मालायां किमस्ति श्वेत इति गुण अस्ति खलु श्वेतः इति गुणः मालायाम् अस्ति खलु एतत् पदं गुणं वदति वा अथवा गुणवत् पदं वदति वा किं वदति खलु अतः अत्र गुणः अस्ति अत्र गुणवत् अस्ति खलु समीचीनं वा
कलं कथं माला
अत्र गुणः अस्ति अत्र गुणवत् अस्ति खलु अधोभागे गुणवत् खलु गुणः गुणः उपरि अस्ति गुणवत् अधोभागे अस्ति गुणः गुणवत् पदार्थे अस्ति खलु श्वेतः इति गुणं वदति माला इति गुणवत् अस्ति गुणवती अस्ति श्वेता इति माला का इति वदति अतः श्वेता गुणवत् वाचकपदं श्वेतः इति गुणवाचकपदम्
श्वेतः गुणवाचकपद गुणवाचकपदम्
श्वेता माला विशेषणं यत्र अस्ति तत् गुणवत् वाचकपदम् गुणवत् वाचकपदं गुणवत् इत्यत्र नास्ति गुणवत् वाचकपदम् अस्ति
गुणवत् वाचकपदं गुणवत्त्वा गुणवत्त्वम् इति
गुणवत्त्वम् इति नास्ति अत्र, केवलं गुणवत् वाचकपदम् इति एव अस्ति. अस्तु, तत्र उदाहरणं पश्यामः, तत्र सर्व समीचीनमेव भवति. अतः तत्र अग्रे तत्र कः का पठितुम् इच्छति? नरसिंह महोदय अग्रे पठितुम् इच्छति वा?
कुत्र पठे पठितुं महोदय?
नरसिंह महोदय तत्र भवतः कथनस्य आशयः न अवगतः मया इति.
भवतः कथनस्य आशयः न अवगतः मया.
पुष्पा भगिनी, तत्र अटाच्मेण्ट् अहं प्रेषितवान् तत्र अस्ति. अस्तु, यदि भवती म्यूट् मध्ये अस्ति चेत् समीचीनं भवति. अस्तु,
आचार्यः वदति पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दगुणवाचकः, श्वेतं पुष्पम् इत्यत्र श्वेत श्वेतशब्दगुणवद्वाचकः.
पुनः अर्थः वदतु महोदय.
पुष्पस्य वर्णः श्वेतः इति यदि वयं प्रयोगं कुर्मः चेत् श्वेत इति शब्दः गुणवाचकशब्दः भवति.
किमर्थं
तत्र श्वेत इति रूपं पुष्पे अस्ति इति वदति, अर्थः भवति अतः.
अस्तु, अत्र चित्रं कुर्मः तर्हि. अत्र पुष्पम् अस्ति, पुष्पमिति द्रव्यं खलु, पुष्पमिति द्रव्यम्. अस्मिन् द्रव्ये गुणः
श्वेतरूपी गुणः अस्ति इति.
रूपगुणः अस्ति, रूपगुणः अस्ति. गुणः किम् अस्ति? श्वेतः इति अस्ति खलु. श्वेतः इति गुणः पुष्पे अस्ति. श्वेतः किं वदति? पुष्पं वदति वा, अथवा श्वेतः कः अस्ति? गुणः वा अथवा
श्वेतगुणः अस्ति.
अतः श्वेतः इति पदं गुणवाचकपदम् अस्ति,
गुणवाचक.
इदानीम् अतः श्वेत पुष्पस्य वर्णः श्वेतः इति प्रयोगे श्वेतशब्दः गुणवाचकः. इदानीम् अग्रे
इदानीं श्वेतं पुष्पम् इत्यत्र श्वेतशब्द गुणवत् वाचकः.
किमर्थं
तत्र पुष्पे श्वेतवत्वम् अस्ति इति अर्थः भवति एतस्य?
तत्र श्वेतवत् इत्युक्ते कः? तत्र गुणवत्, गुणवत् इत्युक्ते यस्मिन् गुणः अस्ति. अत्र यस् कस्मिन् गुणः अस्ति? पुष्पे गुणवत् गुण पुष्पे गुणः
अस्ति.
तत्र श्वेतं नाम श्वेतम् इति पुष्पं कीदृशम् इति भवति. अतः तत्र श्वेतम् इति पुष्पस्य वर्णनं करोति, पुष्पं किम् इति वदति. अतः तत्र श्वेतम् इति पदं गुणवत् वाचकपदं. तत्र श्वेतम् इति तत्र अत्र एव भवति, श्वेतम् इति पुष्पं किम् इति वदति, किन्तु श्वेतः पुष्पे विद्यमानः गुणः कः इति वदति. अतः भेदः तत्र पुष्पस्य वर्णः श्वेतः, तत्र श्वेतशब्दः गुणवाचकः. श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः. उपरि नास्ति, अधोभागे अस्ति. गुणे
श्वेतम् इत्युक्ते पुष्पमेव भवति अर्थः, तदेव अर्थः भवति श्वेतं पुष्पं समानं.
श्वेतम् इति गुणस्य वर्णनम् अस्ति, यस्मिन् गुणे अस्ति इति वदति खलु. हा तत्र यदि अहं वदामि श्वेतः इति यदि वदामि भवान् जानाति श्वेतः इति गुणः अस्ति खलु किन्तु श्वेतः इति वदामि भवान् जानाति वा गुणस्य आश्रयः कः इति केवलं श्वेतः इति अस्ति अतः तत्र श्वेतः गुणस्य वर्णनं करोति श्वेतः गुणवाचकः अस्ति किन्तु यस्मिन् एषः गुणः अस्ति इति तद् न वदति श्वेतः इति शब्दः यस्मिन् गुणः अस्ति इति न वदति खलु पुष्पस्य वर्णः श्वेतः इति सम्पूर्णवाक्येन पुष्पम् इति आश्रयः इति अवगच्छामः किन्तु केवलं श्वेतः इति न अवगच्छामः अतः श्वेतः इति शब्दः गुणवाचकः किन्तु श्वेतं पुष्पम् इति यत्र अस्ति तत्र श्वेतं किमस्ति पुष्पमेव अस्ति अतः श्वेतम् आश्रयस्य वाचकमस्ति न तु गुणस्य वाचकम् समीचीनं वा
आम् आम् यथा घटवत्त्वं भूतले अस्ति इति तादृशं
हा तत्र अस्तु सत्यं घटवत् इति भूतलस्य वर्णनं न तु घटस्य वर्णनं
घटस्य आम्
घटवत् इति विशेषणं घटवत् इति भूतलस्य वर्णनं न तु घटस्य वर्णनं घटवत् इति भूतलवाचकपदं घटवाचकपदं नास्ति तथैव
श्वेतत्वम् इति पुष्पस्य वर्णनमेव भवति श्वेतत्वं
गुणवत् यत्र गुणः अस्ति इति तद्वदति श्वेतः इति गुणं पुष्पे अस्ति इति कृत्वा श्वेतं पुष्पम् इति वदामः खलु अतः पुष्पे श्वेतः गुणः वर्तते इति तस्य अर्थः अतः श्वेतम् इति अस्मिन् पदार्थे अस्मिन् पुष्पे श्वेतवर्णः अस्ति अतः गुणवत् पुष्पं यदस्ति तस्य वर्णनम् अतः तत्र श्वेतम् इति गुणवत् वाचकं पदम् इति सिद्ध्यति खलु अस्तु अग्रे
गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेषनिघ्नता आम् श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् श्वेतत्वयुक्तं पुष्पम् इत्यर्थः अतः गुणवद्वाचकता इति उच्यते विशेषनिघ्नता भवति श्वेतत्वम् इत्यत्र विशेषनिघ्नता भवति इत्युक्ते लिङ्गवचनानुसारः तत्र प्रयोगभिन्दु विद्यते लिङ्गवचनानुसारेण प्रयोगभिद्यते
हा यत्र आश्रयस्य वर्णनं गुणवत् वाचकत्वे तत्र आश्रयस्य वर्णनं तत्र विशेषणत्वेन प्रयोगः भवति तदा एव विशेष्यं लिघ्नता नाम तदा एव तत्र त्रिषु लिङ्गेषु तत्र प्रयोगः भवितुम् अर्हति आश्रयस्य लिङ्गम् अनुसृत्य एतस्य पदस्य लिङ्गः लिङ्गमपि भवति यत्र
श्वेतपुष्प श्वेतं पुष्पम् इति रूपत्रयं
भवति तत्र तत्र आश्रयस्य वर्णनं तत्र गुणवत् वाचकत्वं तत्र एव विशेष्य निघ्नता नाम तत्र एव लिङ्गभेदाः भवन्ति त्रिषु लिङ्गेषु रूपं भवति गुणवत् वाचकत्वे विशेष्य निघ्नता इति अस्ति अस्तु समीचीनं तत्र धन्यवादः महोदय इदानीं तत्र अग्रे अन्य कोऽपि किञ्चित् वदतु तर्हि तत्र शोभा भगिनी किञ्चित् वदति वा तत्र तत्र पुष्पस्य गुणवत् वाचकत्वे इति तत्र
अस्तु महोदय तत्र पुष्पस्य गुणवत् वाचक गुण मतुप् प्रत्ययस्य योजनेन तत्र
मतुप् प्रत्ययस्य अर्थः कः मतुप् प्रत्ययस्य अर्थः अस्ति गुणवत् इत्युक्ते गुणवत् इत्युक्ते तत्र मतुप् अस्ति खलु गुणवत् इति
गुणवत् इत्युक्ते यथा तत्र घटवत् भूतलम् इति भूतलमेव सूचयति
नाम तत्र
तत्र
गुणवत् इत्युक्ते न न भगिनी तत्र वत् इति मतुप् मतुप् प्रत्ययस्य अर्थः कः
अर्थः कः इत्युक्ते
तेन प्रत्ययेन
धर्मः
भावः इति धर्मः किन्तु तत्र घटवत् घटवत् तत्र धनः धनवत् धनवान् धनवान् इति मतुप् खलु अर्थः कः धनवान् इत्युक्ते कः
यस्य यस्मिन् धनम् अस्ति इति
अतः मतु प्रत्ययस्य अर्थः यस्य यस्मिन्
यस्य यस्मिन् किमपि
गुणवत् इत्युक्ते यस्मिन् गुणः अस्ति
गुणः अस्ति गुणवत् गुणवान् गुणवती इति भवति
अत्र तत्र मतु प्रत्ययेन किं भवति आश्रयः कः इति
दर्शयति
सूचयति खलु
आम् आम्
तत्र गुणवत् इति नाम गुणस्य आश्रयः कः इति सूचयति अतः तत्र गुणवाचकः पदं गुणः इति गुणं सूचयति गुणवत् वाचकपदं गुणस्य आश्रय
सूचयति यस्य यस्मिन् इति कः अथवा का इति किम् इति सूचयति
सूचयति अस्तु इदानीं तत्र इदानीं तत्र वदतु तत्र पुनः एकवारं पठित्वा किञ्चित् वदतु पुष्पस्य वर्णः श्वेतः इति
पुष्पस्य वर्णः श्वेतः इति एतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः तत्र पुष्पस्य वर्णः श्वेतः इति गुणवाचकः कथं भवति इत्युक्ते गुणम् एव सूचयति तत्र पुष्पस्य वर्णः इति इत्युक्ते तत्र गुणः पुष्पे अस्ति अतः गुणस्य धर्मः भवति तत्र
गुणः कः इति वदति
गुणः कः अपि च गुणः अस्ति इति कृत्वा तत्र गुणः आधेयः भवति पुष्पम् अधिकरणं भवति
समीचीनं अतः तत्र श्वेतः श्वेतपदं
श्वेतः इति पदं गुणम् एव सूचयति न तु गुणि
गुणवाचकपदम् अस्ति तस्मिन्
तत्र किं निर्देशयति आधार आधेयभावं निर्देशयति अपि
किन्तु तत्र केवलं यदि श्वेतः इति वदामः तत्र वयम् आश्रयः कः इति न जानीमः
न जानीमः यत्र कुत्रापि श्वेतः इति गुणः भवितुम् अर्हति
इदानीं
आधारः कः इति न ज्ञायते
न ज्ञायते इदानीम् अग्रे श्वेतं
श्वेतं पुष्पम् इति उक्तत्वा तत्र मतु प्रत्ययः भवितुमर्हति तत्र पुष्पमिति नपुंसकलिङ्गे अतः तत्र गुण श्वेतवत् पुष्पम् इति वक्तुं शक्नुमः
तत्र श्वेतः गुणः इति कृत्वा श्वेतवत् पुष्पं यतोहि
श्वेतवत् पुष्पम् इति तत्र श्वेतवत् इति उक्तत्वात् पुष्पमेव यथा घटवत् भूतलम् इति भूतलं भवति तथा श्वेतवत् पुष्पम् इत्युक्ते पुष्पमेव
अतः
तत्र इत्यत्र श्वेतशब्दः गुणवत् वाचकः भवति न तु गुणवाचकः
इत्युक्ते किं किम् अस्ति श्वेतं पुष्पमेव
श्वेतम् इत्युक्ते पुष्पमेव तत्र श्वेतम् इति पुष्पस्य धर्मः इति न भवति गुणः इति न भवति तत्र आधेय आधारभावः नास्ति
तत्र श्वेतम् इत्युक्ते तत्र पुष्पमेव तत्र
तत्र गन्धवती पृथिवी अपि च
गन्धवती पृथिवी एव अस्ति
पृथिवी एव अस्ति अपि च
गन्धः गन्धवती इति गन्धः नास्ति खलु गन्धवती
न तत्र तदेव महोदय श्वेतपुष्प पृथिवी एव अस्ति इति तदपि एकम् उदाहरणमस्ति किल महोदय गन्धवती पृथिवी इति उक्तत्वात् पृथिवी एव इति
पृथिवाचकपदम् अस्ति पृथिवीवाचकपदम् अस्ति
पृथिवीवाचकपदम्
तथैव श्वेतम् इति पुष्पवाचकपदं पुष्पं नाम गुणवत् इति अस्ति अतः अग्रे अग्रिमवाक्यम्
अग्रे गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेष्य निघ्नता इति गुणवत् वाचकत्वे इत्युक्ते यथा तत्र श्वेतवत् पुष्पम् इति गुणवत् वाचक शब्दः तस्मिन् गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेषनिघ्नता तत्र विशेषणत्वेन प्रयोगः इति तत्र श्वेतं श्वेतरूप वर्णस्य अथवा रूपस्य विशेषणत्वेन प्रयोगः भवति तत्र श्वेतं पुष्पम् इत्युक्ते कीदृशं
भगिनी तत्र प्रयोगद्वयमस्ति पुष्पस्य वर्णः श्वेतः तत्र गुणवाचकं प्रयोगः वा अथवा गुणवत्वाचकप्रयोगः
तत्र गुण केवलं गुणवाचकप्रयोगः
इति एकः प्रयोगः इदानीं श्वेतपुष्पं श्वेता माला इत्यत्र गुणवत् वाचकं
गुणवत्वाचकप्रयोगः
गुणवत्वाचकप्रयोगः अतः तत्र उक्तमस्ति गुणवत्वाचकप्रयोगं यत्र अस्ति तत्र किं भवति विशेषणरूपेण भवति नाम तत्र विशेषणं भवति
आम् श्वेतम् इति
वाचकमस्ति तत्र विशेषणं भवति पदं वाचकपदं गुणवत् वाचकपदं विशेषणं भवति तत्र श्वेतम् इति पदं गुणवत् वाचकपदमस्ति अतः तत्पदं विशेषणं भवति अतः एव तत्र विशेष्यनिघ्नता नाम तस्य लिङ्गं विशेषस्य लिङ्गम् अनुसरति अतः गुणवत् वाचकत्वे विशेषणत्वेन
प्रयोगः
तन्नाम
विशेषनिघ्नता इत्युक्ते तत्र तत्र लिङ्गस्य विषये किल महोदय विशेषणत्वेन प्रयोगः इत्युक्ते तत् विशेषण तत्र श्वेतरूपमेव
नाम तत्र द्वितीयप्रयोगे तत्र गुणवत् द्वितीयप्रयोगे गुणवत्वाचकत्वमेव अस्ति न तु गुणवाचकत्वं
सत्यम् अतः तत्र तत्र प्रथम वाक्ये तत्र पुंलिङ्गे एव भवति पुंसि एव भवति पुष्पस्य वर्णः श्वेतः इति किन्तु द्वितीय गुणवाचक वाक्ये द्वितीयवाक्ये यत्र गुणवत् वाचकवाक्यमस्ति तत्र विशेषणत्वेन प्रयोगः भवति तत्र विशेषणत्वं दृष्ट्वा एव लिङ्गं
तत्र नाम
जानीमः
तत्र पूर्वं किम् उक्तं तत्र श्वेतादीनाम् अर्थद्वयं भवति इति उक्तं खलु पूर्वम्
आम्
अर्थद्वयं किम् इति अत्र उत्तरमस्ति नाम प्रयोगद्वयं वर्तते प्रयोगभेदात् अर्थभेदः वर्तते एकः अर्थः अस्ति गुणवाचक अन्य अर्थः अस्ति तत्र गुणवत् वाचकम् श्वेतः इति गुणः गुणवाचकपदं भवितुमर्हति अथवा गुणवत् वाचकपदं भवितुमर्हति अतः तत्र तस्य अर्थद्वयं वर्तते गुणस्य वर्णनम् इति एकः अर्थः अथवा अन्यस्मिन् प्रयोगे गुणवत् तस्य वाचकम्
गुणवत् यत् अस्ति तस्य वाचकं भवति
अतः तत्र प्रयोगद्वयं वर्तते तेन अर्थभेदः भवति अर्थभेदेन अथवा प्रयोगभेदेन लिङ्गस्य नियमः अपि भिन्नः भवति
इति तत् तदेव विशेष्यनिघ्नता इति उच्यते महोदय
द्वितीयप्रयोगे एव यत्र गुणवत् वाचकत्वम् अस्ति तत्र एव विशेषणं भवति तत्र एव लिङ्गभेदाः तत्र पुल्लिङ्ग वा स्त्रीलिङ्ग वा नपुंसकलिङ्ग भवितुम् अर्हति द्वितीयप्रयोगे यत्र गुणवत् वाचकत्वम् अस्ति तत्र एव द्वितीयप्रयोगे एव तत्र लिङ्गभेदः भवति यतोहि विशेषणम् अस्ति इति कृत्वा अस्तु समीचीनं भगिनि तत्र अस्तु जयलक्ष्मी भगिनी तत्र निमिषद्वयम् अस्ति किञ्चित् पठति वा भगिनि भवती
आं महोदय अत्र प्रमाणं किं तथा
न न तत्र आम् इति तत्र आम् श्वेतम्
आम् श्वेतं पुष्पम् इत्यत्र श्वेत श्वेतत्ववत् श्वेतवत् श्वेतत्वयुक्तं पुष्पम् इत्यर्थः अतः गुणवत् वाचकता इति उच्यते आचार्यः वदति उत्तररूपेण श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् इति अर्थः भवति इत्युक्ते श्वेतत्वयुक्तं पुष्पे श्वेतत्वम् अस्ति इति भावः भवति अतः गुणवत् वाचकता इति अर्थः प्राप्यते तत्र इति उक्तं शिष्यः वदति यदा विशेष्यनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः यथा श्वेतः हारः श्वेता माला श्वेतं पुष्पं तस्मिन् समये शिष्यः पृच्छति यदा विशेष्यनिघ्नता तथा लिङ्गभेदात् रूपभेदः अपि भवति इति वदति इत्युक्ते यत्र विशेष्यं हारः इति पुल्लिङ्गपदे अस्ति तस्मिन् सन्दर्भे विशेषनिघ्नता च तत्र भवति तेन श्वेतः इत्यस्य पुल्लिङ्गः एव भवति किन्तु माला इति विशेषं स्त्रीलिङ्गे अस्ति इति कृत्वा अत्र श्वेता इति स्त्रीलिङ्गे अपि भवति किमर्थमिति चेत् अत्र भावः अस्ति वत् भावः अस्ति गुणिभावः तत्र दृश्यते मालायां श्वेतत्वम् अस्ति इति अर्थः भवति श्वेतं पुष्पम् इत्यत्र पुष्पे श्वेतत्वम् अस्ति इति भावना अस्ति इति कृत्वा तत्रापि नपुंसकलिङ्गे भवति
अत्र सर्वत्र गुणवाचकत्वम् अस्ति वा अथवा गुणवत् वाचकत्वम् अस्ति
गुणवत् वाचकं वाचकता अस्ति
इति प्रयोगः तत्र सर्वत्र गुणवत् वाचकप्रयोगः अतः एव तत्र विशेषणं भवति अतः एव तत्र लिङ्गभेदः तत्रापि भवति समीचीनं हा अस्तु भगिनि
आचार्य गुणवाचकत्वे तु पुंसत्वम् एव प्रयोगः तु पूर्वं दर्शितः शिष्यः अत्र प्रमाणं किम् आचार्यः वदति गुणवाचकत्वे सदा पुंसत्वमेव भवति इति वदने शिष्यः प्रमाणं किम् इति पृच्छति आचार्यः वदति अमरकोशवाक्यम् अत्र प्रमाणम् अमरकोशः वदति गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति इति उक्तम् अमरकोशे एतत् वाक्यमस्ति गुणे शुक्लादयः पुंसि इत्युक्ते यत्र गुणः प्रदर्शयति तस्मिन् सन्दर्भे सर्वदा पुंसि एव भवति इति अर्थः इत्युक्ते पुल्लिङ्गे एव भवति इति अर्थः तद्वति गुणि तस्मिन् सन्दर्भे लिङ्गः भेदः भवति यत् यस्य विशेषस्य लिङ्गः यत् अस्ति तदेव विशेषणस्यापि तस्मिन् सन्दर्भे भवति इति अमरकोशे वाक्यं निर्दिष्टमस्ति
तत्र समये दत्ता किन्तु समीचीनम् अत्र अग्रिमे वर्गे तत्र अमरकोशवाक्यात् तत्र आरम्भं कुर्मः तदनन्तरं केवलं वाक्यत्रयम् अस्ति तदनन्तरं तत्र विशेषणं किं विशेषं किं तत्र विशेषणविशेषभावः कः इति तत्र तस्मिन् विषये करपत्रमस्ति तत्र बहु किमपि अस्ति वक्तव्यमस्ति किन्तु तद् सर्वं पठामः तदनन्तरं विद्याधर्यम् अग्रेसरामः धन्यवादः भगिनी
धन्यवादः महोदय
अस्तु अन्य कोऽपि प्रश्नः नास्ति चेत् अत्र एव विरमामः सर्वेभ्यो नमः धन्यवादः नमस्कारः